इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य राजस्थाने 1.05 लक्षकोटिरूप्यतोप्यधिकानां विकासपरियोजनानाम् उद्घाटनं शिलान्यासं च विहितवान्। केन्द्रीयगृहमन्त्रालयेन विधिविरुद्ध क्रियाकलाप निवारण अधिनियमान्तर्गतं पाकिस्ताने स्थिताः 23 जनाः आतंकवादित्वेन उद्घोषिताः। व्यापकरूपेण प्रवृत्तं चलच्चित्रवञ्चनामाधृत्य भारतसर्वकारेण टेलीग्राम संस्थायाः कृते आधिकारिकी सूचना प्रसारिता। भारत इज़राइल देशयोः मध्ये संजातः द्विपक्षीय निवेश सन्धिः अद्यारभ्य आधिकारिकरूपेण प्रवृत्तो जातः। भारतर्तु विज्ञान विभागेन विज्ञापितं यत् आगामिषु चतुर्दिवसेषु मध्यभागे गुजरात राज्यस्य कतिपयेषु अन्यभागेषु हरियाणा पंजाब राजस्थान प्रान्तानां शिष्टेषु क्षेत्रेषु प्रावृतस्थितिः सर्वथा अनुकूला वर्तते। अपि च पुरुष क्रिकेट क्रीडायां भारत इंग्लैंड देशयोः मध्ये द्वितीया T20 अन्ताराष्ट्रिय क्रीडा अद्य मैनचेस्टर नगरे क्रीडिष्यते। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्रमोदी अद्य राजस्थाने 1.05 लक्षकोटिरूप्यतोप्यधिकानां विकासपरियोजनानाम् उद्घाटनं शिलान्यासं च विहितवान्। अनेन राज्ये आधारभूतसंरचनायाम् ऊर्जायां परिवहने उद्यमसृजने च तीव्रता आयास्यति। स्वस्य यात्रायां प्रधानमन्त्रिणा जोधपुर विमानपत्तने नूतनस्य टर्मिनल भवनस्य उद्घाटनं कृतम्।
आज राजस्थान में विकास के कई और भी कीर्तिमान स्थापित हो रहे हैं। आज ही जोधपुर में नए एयरपोर्ट टर्मिनल का उद्घाटन किया गया है और मैं सोशल मीडिया में देख रहा था कि नए टर्मिनल का आर्किटेक्चर इंटीरियर ये सोशल मीडिया में छाया हुआ है। चारों तरफ राजस्थान ही राजस्थान दिख रहा है। साथियों, ये मारवाड़ में पर्यटन व्यापार और रोजगार को नई गति देगा।
तदनन्तरं सः बालोतरा मण्डलस्य पचपदरा क्षेत्रे देशस्य अत्याधुनिकं ग्रीनफील्ड रिफाइनरी सह पेट्रोकेमिकल कॉम्प्लेक्स इत्येतत् राष्ट्राय समर्पितवान्। अत्रान्तरे तेन जयपुर मेट्रो द्वितीय चरणस्य शिलान्यासः अपि आभासी माध्यमेन कृतः। अस्मिन् अवसरे जनसभां सम्बोधयन् प्रधानमन्त्रिणा प्रोक्तं यत् पश्चिम एशिया क्षेत्रस्य संघर्षेण 21वीं शताब्द्याः महत्तमः ऊर्जा संकटः समुत्पन्नः, किन्तु भारतेन समयोचित निर्णयैः कूटनीत्या च एषः कालः सम्मुखीकृतः। पूर्वं भारतं 25-26 देशेभ्यः ऊर्जा आयातं करोति स्म, इदानीं तत् 40 देशेषु विस्तारितम्। सः सबलं प्रावोचत् यत् वैश्विकोत्पाते अपि सर्वकारेण वातिन्धनस्य मूल्यं 2,000 रूप्यकाणां स्थाने केवलं 50-900 रूप्यकेषु नियन्त्रितम्। प्रधानमन्त्रिणा प्रोक्तं यत् पश्चिम एशिया युक्रेन संघर्षैः समुत्पन्ने वैश्विक उर्वरक संकटे अपि यूरिया मूल्यं 3,000 रूप्यकाणां स्थाने कृषकाणां कृते 300 रूप्यकेषु एव सुरक्षितम्। अनेनैव सह जोधपुरतः आरब्धया उड़ान योजनया लघुनगराणां सुदूरक्षेत्राणां च कृते वैमानिक सम्पर्कः अधिकः सुदृढः भविष्यति।
जोधपुर से ही आज उड़ान योजना के नए चरण की भी शुरुआत हुई है। इसके तहत छोटे छोटे शहरों और दूर दराज के क्षेत्रों को एयर कनेक्टिविटी से जोड़ा जाएगा। साथ ही अब जयपुर में मेट्रो का विस्तार भी होने जा रहा है।
राजस्थान सर्वकारस्य विभिन्न विभागेषु च नियुक्तानां चतुःपञ्चाशत्सहस्र युवकानां कृते नियुक्तिपत्राणि अपि प्रधानमन्त्रिणा वितरितानि। केन्द्रीयगृहमन्त्रालयेन विधिविरुद्ध क्रियाकलाप निवारण अधिनियमान्तर्गतं पाकिस्ताने स्थिताः 23 जनाः आतंकवादित्वेन उद्घोषिताः। एते सर्वे जैश ए मोहम्मद, लश्कर ए तैयबा इत्यादिभिः आतंकवादिसंगठनैः सह सम्बद्धाः आसन्। मन्त्रालयेन निगदितं यत् देशस्य नागरिकाणां सुरक्षायै सर्वकारः प्रत्येकं आतंकवादीसंजालं विनष्टुं कृतसंकल्पः वर्तते। अद्य उद्घोषितेषु त्रयोविंशति आतंकवादिषु 17 पाकिस्तानदेशस्य नागरिकाः 6 च भारतीयनागरिकाः सन्ति। परञ्च साम्प्रतम् इमे पाकिस्तानात् पाकिस्तान अधिकृत जम्मूकश्मीराच्च आतंकवादी गतिविधीन् संचालयन्ति। एते आतंकवादिनः भारतविरोधि कृत्येषु शस्त्रास्त्र तस्करेषु निधिसंग्रहादिषु संलग्नाः सन्ति। अस्याः घोषणायाः परं राष्ट्रियान्वेषण अभिकरणेन एतेषां वित्तीय स्रोतांसि अवरोद्धुं शक्यन्ते, सम्पत्तिश्च स्वायत्तीकर्तुं शक्यते। अवधेयमिदं यत् 1991 वर्षे UAPA अधिनियमे संशोधनस्य कार्यान्वयनानन्तरं केन्द्रीय सर्वकारेण 80 जनाः आतंकवादित्वेन उद्घोषिताः। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। व्यापकरूपेण प्रवृत्तं चलच्चित्र वञ्चना वृत्तमाधृत्य भारतसर्वकारेण टेलीग्राम संस्थायाः कृते आधिकारिकी सूचना प्रसारिता। आधिकारिकस्रोतेभ्यः प्राप्तानुसारं प्रशासनेन टेलीग्राम संस्था वञ्चना प्रसारितेभ्यः चलच्चित्रेभ्यः ओटीटी विषयवस्तुभ्यः सद्यः प्रतिबन्धात्मकं पदक्षेपं वोढुं समादिष्टा। अस्य संवाद मञ्चस्य प्रबन्धकाः आगामिषु 15 दिनेषु स्वीकृत कार्याचरणस्य प्रतिवेदनं प्रेषितुं निर्दिष्टाः। भारत इज़राइल देशयोः मध्ये सञ्जातः द्विपक्षीय निवेश सन्धिः अद्यारभ्य अर्थात् जुलाई मासस्य 5 दिनांकात् आधिकारिकरूपेण प्रवृत्तो जातः। अयं हि ऐतिहासिकः सन्धिः गतवर्षे सितम्बर मासे नवदेहल्यां हस्ताक्षरितं गतः। केन्द्रीय वित्तमन्त्रालयः प्रत्यपादयत् यत् अयं द्विपक्षीय निवेश सन्धिः उभयोः राष्ट्रयोः आर्थिक सम्बन्धानां दृढीकरणाय अथ एकं सुरक्षितं पूर्वानुमानयोग्यं निवेशवातावरणं निर्मातुमेकं ऐतिहासिकं चरणं वर्तते। मन्त्रालयेन गदितं यत् सन्धेः आधारेण परिसीम्नि निवेशगतिविधिषु प्रवर्धनेन सह भारत इज़राइल देशयोः मध्ये रणनीतिक आर्थिक सहभागिता अपि गभीरा भविता। उपराष्ट्रपतिः सीपी राधाकृष्णन् प्रधानमन्त्री नरेन्द्र मोदी च अद्य स्वामी विवेकानन्दस्य पुण्यतिथौ तस्मै सादरं श्रद्धाञ्जलिं समर्पितवन्तौ। सामाजिकान्तर्जालीय सन्देशे उपराष्ट्रपतिना राधाकृष्णन् इत्यनेन स्वामी विवेकानन्दः कश्चन महान् देशभक्तः, दार्शनिकः, आध्यात्मिक द्रष्टा चेति व्यपदिष्टः। तेन प्रोदीरितं यत् स्वामी विवेकानन्देन भारतस्य सभ्यतामूलक चेतनायाः पुनर्जागरणं विहितम्। सहैव देशस्य सनातनज्ञानं कृत्स्नं हि विश्वं प्रति प्रसारितम्। उपराष्ट्रपतिना सबलं विज्ञापितं यत् स्वामिनः आत्मविश्वासपूर्णस्य, प्रबुद्धस्य, करुणापूर्णस्य च भारतस्य परिकल्पना अद्यापि राष्ट्रस्य विकासयात्रायाः मार्गं दिशति। प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रतिपादितं यत् भारतस्य संस्कृतम् आध्यात्मिकतां राष्ट्रियचेतनां च वैश्विकपटले प्रतिष्ठापयितुं स्वामी विवेकानन्दस्य यत् अवदानं वर्तते तत् अनुपम अस्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य डिजिटल परिष्कारैः उपभोक्तृन्यायं सुदृढीकर्तुं सर्वकारस्य प्रयत्नान् रेखाङ्कितवान्। केन्द्रीयमन्त्रिणा प्रह्लादजोशिना लेखं प्रकाशयन् श्रीमोदी अवदत् यत् सम्बद्धपक्षैः सह व्यापकमन्त्रणायाः परं ई जागृति मञ्चः परिष्कृतः। भारतर्तु विज्ञानविभागेन विज्ञापितं यत् आगामिषु चतुर्दिवसेषु मध्यभागे गुजरातराज्यस्य कतिपयेषु अन्यभागेषु हरियाणा पंजाब राजस्थान प्रान्तानां शिष्टेषु क्षेत्रेषु प्रावृतस्थितिः सर्वथा अनुकूलं वर्तते। पुरुष क्रिकेट क्रीडायां भारत इंग्लैंड देशयोः मध्ये द्वितीया T20 अन्ताराष्ट्रिय क्रीडा अद्य मैनचेस्टर नगरे क्रीडिष्यते। भारतीय समयानुसारं क्रीडेयं अद्य सायं 7 वादने समारप्स्यते। इति वार्ताः।